ससन्न जातो वचक्रतद्वने स्वा अर्यद्वाज्यरुढस्तिषा सति दिभोरेतसा सजते पजो वृधातमीमहे सुभति शर्म सप्रथाः दिवो यस्कम्भो धरुणस्वा तत आपूर्णा अंसः पर्येति विश्वतः से मे महीरोदसी यक्षता वृथा समीचीने धाधारसमिषः कविः महेत्सरस्सुकृतम् सौम्यम् मधूर्वी गव्यो दिरदीतेर्वृतम् यते ीशेयो विष्टेतौ श्रियो वृषापान्नेताजहितभूतिर्विग्मिजा आत्मन्वन्नभो दुह्यते घृतम् पज घृतस्य नाभिरमृतम् विजायते समीचीराः सुरानवः प्रीणन्ति तम् नरो हितमवमेहन्ति पेरवः ीधंसस्य च मानभूर्मिणा देवाव्या अम्मनुषे पिण्डसि त्वजम् तथाधिगर्भमति ते रूपस्थायेन तोकम् च तनयम् च धामहे सहस्रधारे भताशश्च तस्तृतीये सन्तुरजसि प्रजावतीः ततस्रो नाभो निहिता अवो दिवो हविर्भरन्तमृतम् घृतश्चुताः चेदम् रूपम् कृणुते यत्सिषा सति सोमो भीड्वा असूरो वेदभूमनः विलासमीसजते सेमभिद्रवद्दिवस्कबन्धमवदर्शदुद्रिणम् अथ श्वेतम् कलशम् गोभिरक्तम् काष्पन्नाभाद्यक्रमे स्वसवान् आहिन्विरेवना सा देवयम् दः कक्षीव ते सतहीमायगोनाम् अद्भिस्वामपृधानस्य ते रसो व्योमारम् विपवमान धावति समर्जमानः कविभिर्मदिन्दमस्वधस्वेन्द्राय पवमान पीतये